शेषाचला समासाध्य कश्यपाद्या महर्षयः वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा कलिसंतारकं पुण्यं स्तोत्रमेतज्जपेन्नरः सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति कश्यप उवाच कादि ह्रीमन्त विद्यायाः प्राप्यैव परदेवता कलौ श्रीवेङ्कटेशाख्यः त्वामहं शरणं भजे अत्रि उवाच अकारादिक्षकारान्त वर्णैर्यः प्रतिपाद्यते कलौ श्रीवेङ्कटेशाख्यः शरणं मे रमापतिः भरद्वाज उवाच भगवान् भार्गवी कान्तो भक्ताभीप्सितदायक भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः विश्वामित्र उवाच विराट् विष्णुर्विधाता च विश्वविज्ञानविग्रहः विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा गौतम उवाच गौर्गालीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः शरणं गौतमास्यास्त वेङ्कटाद्रिशिरोमणिः जमदग्निरुवाच जगत्कर्ता जगद्भर्ता जगन्नाथो जगन्मयः जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः वशिष्ठ उवाच भक्तिज्ञानमात्रं च यन्निर्विशेषं सुखं च सत् तद्ग्रहैवाहमस्मीति वेङ्कटेशं भजे सदा सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः सोभयं प्राप्नुयात् सत्यं सर्वत्र विजयी भवेत् श्रीवेङ्कटेश्वर शरणागतिस्तोत्रं सम्पूर्णम्।